நம சர்வேபியஹ. அத்ய ப்ரௌடமனோரமாயாஹ அச்சந்தி ப்ரகரணஸ்ய புனராவர்த்தனே அந்திமஹ பாகஹ. ஏனாக்ஷர சமாம்னாயம் அதிகம்ய மஹேஸ்வராத் தத்ஸம் வ்யாகரணம் ப்ரோக்தம் தஸ்மை பாணினயே நமஹ. த்யாயம் த்யாயம் பரம் ப்ரஹ்ம ஸ்மாரம் ஸ்மாரம் குரோர் கிரஹ சித்தாந்த கௌமுதி வ்யாக்யாம் குர்மஹ ப்ரௌடமனோரமாம். Okay, does anybody volunteer to read first? There's nothing on the screen? Okay, I can see the screen. Okay, so Paul, maybe you should stop your screen sharing and restart it.
Oh.
Or maybe you have paused it. Have you paused it? No, I don't think so. You can.
No.
Yeah, you can stop once and restart.
No. Okay. Okay.
Yeah. I can see it. Can others see the screen? No. Oh, Lord.
Oh.
I honestly don't understand what's happening in this. Okay. I don't know, I mean, I can see it perfectly, and I don't know why the rest are not able to see it. Okay, does everybody have a soft copy of the file, the Proudhamanama, the Moola, Sarvesham? Can you hear? Can you all see now? Or how many of you cannot see the screen? Drishyateva? Ah, uttam. Okay, only Padma Mami can't see. The rest can see. Padma Mami, can you just, if you have the soft copy, it is fine. If you don't, maybe you can just log out and log in. Maybe that will solve the problem. Okay, fine. That's your choice. Okay, we'll start. So, who wants to read out first? We have to start from Lopova iti. Okay. Should I open Mahodaya?
Yes.
Yeah.
Yeah, thank you. Uran Rapraha Lopova iti.
ஜயோகோன்யதரஸ்யாம் இதி சூத்ராத் விகல்ப அனுவிருத்தேகே ஏதச்ச நாஜ்ஜலு இதி சூத்ரே பாஷ்ய கயச்சோ ஸ்பஷ்டம் ப்ராச்சஸ்து விகல்பானுவிருத்தேகே அனுப்தேகே நியூனதா யதபி வியாக்யாத்ருபிஹி சரோச்சி இதி ஞாபகம் அபிப்ரேத்ய தஸ்மாத் விகல்பானுவிருத்தௌ ஞாபகாத்
ஞாபகாந்தரம்
அனுசர்த்தவ்யம் பாஷ்யகாராதி வியாக்யானம் ஏவ வாசரணம். திருத்தலோபயோஹ இதி யத்து வித்வவிதான சாமர்த்யாதே த்வாவேவ சிஷ்யதே சிஷ்யேதே இதி தத்ன லோபஸ்ய வைகல்பிகத்வேன வித்வஸ்ய பக்ஷே சரிதார்த்தத்வாச்ச த்ரிதமிதி யனோமயஹ இதி யனோமய இதி லக்ஷணாந்தரேன புனர் த்வித்வேது சதுர்தம்
Do you remember? Which sutra are we talking about them in the whole thing? Sutra, Vartika, Matu? Vantoi pratyayetinena akaranta adesha vidhiyate kila lopavidhayakam sutram. உச்சியத்தை எதபி வியாக்யாத்ருபிஹி ஷரோச்சி இதி ஞாபகம் அபிப்ரேத்ய தத்சம்வாதார்த்தம் பாஷ்யம் உபன்யஸ்தம் அனுவர்த்ததே விபாஷா ஷரோச்சி யத் வாரயத்யம் த்வித்வம் இதி தன்ன உத்தரபாஷ்யே உக்த ஜ்ஞாபகஸ்ய தூஷிதத்வாத். So how do we know that this is a vikalpa? Some people treat sharochi as a gyapaka. Sharochi says sharaha achipare dvittvam na bhavati. Sharvarna, shoshosa will not get dvittvam when followed by an ach. Now if this lopa is not vikalpa, यदि लोपः विकल्पेन इति नोच्यते तर्हि शरोचि इति व्यर्थम्. यतोहि यत्र यत्र द्वित्वं तत्र तत्र लोपः अपि भवति. तथा सति द्वित्वं न श्रूयते एव. वेरेवर यू हैव द्वित्वा एंड देन यू हैव द लोपा व्हेन फॉलोड बाय सवर्ण, देन द वॉट एवर यू गेट फ्रॉम द्वित्वा इज लॉस्ट. सो देर इज नो पॉइंट इन प्रिवेंटिंग द द्वित्वा. यतोहि द्वित्वे कृते पुनः लोपे कृते एकः वर्णः एव शिष्यते. तर्हि द्वित्वं न भवति इति न वक्तव्यम्. यतोहि द्वित्वस्य फलं न श्रूयते अत्र. अतः तदेव अनुवर्तते विभाषा शरोचि यत् वारयत्येयं द्वित्वम् इति, तेनैव ज्ञायते अयं लोपः विकल्पेन. यदि वैकल्पिकः लोपः तर्हि द्वित्वसहितम् एकं रूपमस्ति, द्वित्वरहितमेकं रूपम्. तत्र द्वित्वसहितस्य रूपस्य श्रवणं मा भूत् इत्येतदर्थं द्वित्वं निषिध्यते इति ज्ञापकत्वं शरोचि इत्यस्य. अतः अनुवर्तते विभाषा शरोचि यद्वारयत्येतं द्वित्वम् इति केचन वदन्ति, तत् न भवति. Can you hear me? I'm sorry, there is some my network connection seems to be very intermittent today, and it's breaking down often. So yeah, tena sharochi ityasya gyapakatvam kechana vadanti tatna तन्न तदुत्तरभाष्ये एव उक्त ज्ञापकस्य दूषितत्वात्. लोपस्य हि नित्यत्वे अचोरहाभ्याम् इति द्वित्वं लोपापवादः स्यात्. तथा च शरोचि इत्यस्य सार्थक्यं स्पष्टमेव. सो हि सेज़ इट केनॉट बी ए ज्ञापक बिकॉज इफ देर इज द्वित्व एंड देर इज लोप एवरीवेर, देन इट इज पॉइंटलेस डूइंग द द्वित्व. Therefore, what will happen if that is the case? Lopasya hi nityatve. If the lopa were nitya, achorahabhyam iti dvitvam lopapavadaha syat. Then the dvitva would have been an apavada to lopa, and therefore we would always hear the dvitva. To prevent that, tathata sharochi ityasya sarthakyam spashtameva. Sharochi would be required, and therefore sharochi cannot be treated as a jnapaka for saying that lopa is vikalpa. The anuvritti of vikalpa is through the commentary. Bhashyakara says that it is vikalpa, and therefore it is vikalpa. So the next are all is fine. Dvitva lopayohu, whether we do dvitva or yata dvitva vidhana samathya dvaveva shishyate iti tanna lopasya vaikalpikatvena. Again he reiterates the point that lopa is vikalpa. So we do dvitva, and then optionally we remove one of the varnas. So there are two forms, one with the single letter and the other with two letters. So in Ruddhi we have three dhakaras. We can do dvitva with using another sutra. We cannot use the same sutra, lakshaya lakshanam sakradeva pravartate. Into sutrantarena yadi punaha dvitvam kriyate tarhi chatvaraha dhakaraha api shruyeran. Okay. So next, who wants to go next? Etyadhati utsu. So those who have not yet sent the assignment, a small reminder, please send it as soon as possible. For those who have sent, I'm sorry, I'll look at it probably this week and send you the feedback. Okay. So etyadhatyutsu. Who wants to volunteer next? ஓகே. உத்துலக்ஷ்மி.
நமஸ்காரம். Can you hear me?
Yeah, I can. We can.
अत्र एके इति अनुवर्तते तच्च एतेरेव विशेषणं न तु एतदेव अव्यभिचारात् नापि रूढः असम्भवात् इति प्राञ्चः अत्र खयडः अपि विशेषणं मा भवान् प्रदिशत् इत्यत्र व्यभिचारात् यद्यपि इदं खयड
पुस्तकेषु
तयोर पुस्तकेषु प्रायेण न दृश्यते तथापि कश्चित् दृश्यते एव न च नवचङ्गी इति ह्रस्वे कृते न अयम् एकदेशः इति वाच्यम् एकदेशविकृत्यस्य अनन्यत्वात् न च एवमपि अजादेः द्वितीयस्य इति द्विशब्दस्थाने शब्दादेशे सति वर्णसौरिव प्रकृतिप्रत्ययविभागसमूह इति वाच्यम् द्विप्रयोगे दुर्वचनम् शास्त्रमिति शास्त्रभाष्ये सिद्धान्तत्वात् अन्यथा इहैव निलोप न स्यात् दिघांसति इत्यादौ स्तनः सकारेण विशिष्टस्य द्वितीये कृते कुत्वं च न स्यात् न च अन्तरं गत्वात् प्रथमं चङि इति द्वितीये कृते हसो न भवति एव इति वाच्यम् ओणेः ऋजित्करणेन बहिरङ्गस्यापि नौचङ्गि इति अस्वस्य प्रथमं प्रवृत्तिः इति ज्ञापितत्वात् अत्र माधवः
अलम् एतत् दृष्ट्वा अग्रे गच्छामः एत्येतद्योः उठि च परे पररूपम् एकादेशः स्यात् इति क्षम्यतां वृद्धिः एकादेशः स्यात् इति सूत्रार्थः तत्र एजाद्योः एत्येतद्योः इति उच्यते दीक्षितैः तत्र एजाद्योः इति कथं लभ्यते वृद्धिरेचि इत्यस्मात् एचि इति अनुवर्तते तच्च एतेः एधतेश्च विशेषणम् इति दीक्षितानां मतम् ऊठस्तु विशेषणं न सम्भवति यतोहि ऊठ् कदापि एजादिः न भवति अतः असम्भवात् न भवति एति एधति इत्येतयोः विशेषणम् इति दीक्षिताः तत्र प्राञ्चः वदन्ति एतेरेव विशेषणम् न तु एधतेः अव्यभिचारात् एधधातोः रूपाणि सर्वदा एजादीनि अर्थात् एकारादीनि अथवा ऐकारादीन्येव भवन्ति अतः एधतेः विशेषणं न भवति विशेषण इस् सार्थक ओन्ली वेन् देर् ईस् अ केस् वेर् द विशेषण डस् नाट् अप्लै सो इफ् आल् लोटसस् इन् द वर्ल्ड् वेर् say pink, then there is no point in saying patalam kamalam. Kamalam itself would mean that it is patala. If all lotuses in the world were of the same color, no point in giving a visheshana. The giving a visheshana means there is a chance where that kamala can be patala or can be of some other color or rakta or whatever. I mean, whatever the color it is. Okay. So visheshana always means that there is the possibility of there is a possibility somewhere of that visheshana not applying. Vyavartakam visheshanam. Visheshana is that which separates those which have that quality from those which does not. If all the entities have that quality, then there is no point in giving a visheshana. So when all the forms of edhadhatu are ejadi, no point in saying ejadau edhadhatau pare vrithir bhavati. Iti pranchaha. किन्तु कैयटः किं वदति मा भवान् प्रेदिधत् प्र इदिधत् एधधातोः निजन्तात् लुङ्लकारे चङ्परे द्वित्वे ह्रस्वे रूपम् इदिधत् यु केन् गो बेक् टु द स्लैड्स् एण्ड् रेफर् टु द फार्म् यु हेव् इदिधत् इट् इस् निजन्तस्य ஏதுதாதோ லுங்லகாரே பிரதம புருஷைக்கவசனே ரூபம் பிர இதிதத் தத்ர மாங் ஸ்தித்யதஹ நமாங்யோங்கே இதி அடாகம நிஷேதே இதிதத் இத்யேவ ரூபம் பவதி பிர இதிதத் இதி ஸ்திதே தத்ர ஏததாதுஹ ஏஜாதிஹி நாஸ்தி தி ஃபார்ம் ஸ்டார்ட்ஸ் வித் இகார தத்ர விருத்திஹி ந பவேத் தத்வாரணார்த்தம் ஏசி இதி ஏததேரபி விசேஷணம் இதி கையட்டஹ வததி க்வசித் prayana kayata pustakesha na drishyate ityapi dikshita hai vadanti in most of the manuscripts we do not find this particular pankti but it is found in some cases and dikshita chooses to accept it because he thinks that is correct so tatra yeah as I said my connection is breaking so ididhat pra ididhat ityatra vrittivaranartham echi iti edhate rapi visheshanam iti kayeta vadati tat vikshite rapi angikriyate tatra kechana vadaha santi aksheepaha bhavanti tasya nivaranam nacha nauchangi iti hrasve krute nayam edhatihi prathamaha aksheepaha edhi ityatra ஏதிதிஸ்தேபாயிரேவ்ஷேபேஷவிக்கிருத்தம் அனியவத் If we change a small part of something, it does not become something else. It is still the same, whether we do Deedha or Hrasva or Lopa. The rule is, as long as more than half of whatever you are, this remains unchanged, it is still the same. If you change more than half, then it becomes unrecognizable. But as long as it is less than half, you are modifying something, then it is still the same. That is what they say. So, Ekadesha Vikratasya Ananyatvaat. பிரஷ்ன அஸ்தி நிஜந்தா சர்வதா பரஸ்மைபதி வா இது நோ நிஜந்தாஸ் ஆர் ஆல்வேஸ் ஐ மீன் ஆர் மோஸ்ட்லி உபயபதிஸ் நிஜஸ்ச இத்தனேன ஆத்மநேபதித்வம் பரஸ்மைபதித்வம் உபயமப்யஸ்தி சோ இட்ஸ் நிஜந்தாஸ் ஆர் ஜென்ரலி உபயபதிஸ் க்வெஸ்சன் ஆன் தட் முத்துலக்ஷ்மி
ஏதே இஸ் ஆத்மநேபதி
Yeah, that is why. Nijantas are, I mean, especially the Preranathaka Nijantas are always Ubhayapadi. It can be...
But here, Edhate is Atmanipadi. So when we want to do the Nijanta and then we are doing the Lung, we are using T.
Yeah, that's what. They are Ubhayapadi. You can use both.
Or you can use this or that.
Yeah, yeah. It can be both. Always, especially Preranathaka Nijantas, they are always Ubhayapadi.
Okay. Thank you.
Yeah. So that is the first objection.
So I'll give you a couple of...
Yeah.
A couple of things. If that half rule, it's the first time that I heard that, so that sounds a little vague. In some instances, that might be difficult to tell.
What?
Whether you've actually... Well, if you've changed something and you don't know whether it's you've really changed half of it or not, or you...
It's just a general thing that Nagesha Bhatta puts it. But, I mean, you don't generally change much. You do an Adesha if you're changing more than half. So, an Adesha is always has Thanivat Bhava. So, you don't have to worry about it. It's only when you're doing something like Hrasva or Deergha or something. So, they always change only a single letter, mostly.
Yeah, yeah.
So, it's definitely...
My other question is the... I've always been a little bit... had a little bit of problem with the oot at the end, you know, the last part of it, the sutra. And all I understand is it's some prasadana, possibly a va. dhatu?
Yes. Oh, svaha dhatu, yeah.
Oh,
yeah, yeah. The you have the prashtavaha, that is the example which they give. Vaha, vahe samprasaranam. Oot. Yeah, you get vakara. It should be replaced by ukara. I mean, why he gives oot as a is vakara samprasaranam is generally rasva ukara. Then he wants a dirgha ukara, so it gives oot as the samprasaranam. Yeah, and
so actually the samprasarana would become oot then.
Oo, yeah, the thakara is it.
Oh, oo,
so it's just
yeah.
Oo, yeah.
Yeah, yeah, of course, yeah.
Okay, so that is the first objection. The second one is, नच एवमपि अजादय द्वितीयस्य इति धीशब्दस्थाने धीधीशब्दादेशे सति वत्नसोः इव प्रकृतिप्रत्यय विभागसम्मोहः. So they say there is this thing where there are some cases where we do an adesha together for the prakriti and pratyaya. Prakriti pratyayoho militva adesha kriyate. Yatha vasnas yushmat shabde, shabde asmat shabde. Prakriti pratyayoho militva ekaha adesha diyate. Tatra ka prakriti hi kaha pratyayaha iti vaktum na shakyate. Yam atra api अजादय द्वितीयस्य इत्यनेन धी इत्यस्य द्वित्वं क्रियते. इधि हस्वे कृते इधि अत् इति स्थिते इधि धि इति क्रियते. तत्र धी इत्यत्र धकारः धातोः इकारः णिच् प्रत्ययस्य एवं प्रकृतिप्रत्ययोः मिलित्वा धिशब्दस्थाने धीधि शब्दादेशः यदि क्रियते तर्हि तत्र का प्रकृतिः कः प्रत्ययः इति न ज्ञायते. प्रकृति प्रत्यय विभाग सम्मोह तथा सति अयम एध धातुः इति वक्तुमपि न शक्यते यतोहि प्रकृतिरपि नष्टा प्रत्ययोपि नष्टः इति कश्चन आक्षेपः. तत्र दुष्प्रयोगः द्विर्वचनं शास्त्रम्. He says there is no question of adesha here. That happens only when you have adesha. This is just dvishprayoga. You are just doubling the syllables in some of the this. इति शास्त्रभाष्ये सिद्धान्ते दत्त्वा अन्यथा इहैव निलोपो न स्यात्. So he establishes the case that even after dvitva, the prakriti and pratyaya remain discernible. Otherwise, atraiva nilopaha nasyat. Idhi dhi at itisthite neraniti ityanena ikarasya lopaha kriyate. Nehe lopaha kriyate. So if you say the prakriti and pratyaya are lost, then you cannot do the nilopa. So he also says where the prakriti is also distinguishable. दिघांसति इत्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यात्. तत्र हनस् इति सन् प्रत्यय सकार सहितस्य हन धातोः द्वित्वं क्रियते. यदि प्रकृतिभागः ज्ञातुं न शक्यते तर्हि हन्तेः हस्य कुत्वं कर्तुमपि न शक्येत. अतः प्रकृतिः अपि ज्ञायते प्रत्ययः अपि ज्ञायत एव इत्यनेन अयम् आक्षेपः समाहितः. तृतीयः आक्षेपः न च अन्तरङ्गत्वात् प्रथमं चङि इति द्वित्वे कृते ह्रस्वो न भवत्येव इति वाच्यम्. आदौ चङि इति द्वित्वं क्रियते एधि इति स्थिते आदौ एधीधि इति क्रियते. ततः उपधायां धकारः अस्ति तथा सति ह्रस्वः न भवत्येव. एकारः नास्ति इत्यतः एकारः ह्रस्वः एव न स्यात् इति चेत् न ओणेः हृदित्करणेन बहिरङ्गस्यापि णौचङि इति ह्रस्वस्य प्रथमं प्रवृत्तिः. सो ओण्ड्र इति धातुः तत्र हृदित्करणस्य प्रयोजनं ह्रस्वनिषेधः. यदि ह्रस्वः न भवत्येव तर्हि ह्रस्वनिषेधः कुतः. अतः तेन ज्ञायते बहिरङ्गस्यापि णौचङि इति ह्रस्वस्य प्रथमं प्रवृत्तिः इति त्रयः आक्षेपाः समाहिताः. चतुर्थ माधवस्य धातुवृत्तौ माधवस्य आक्षेपः. योगेश महोदय पठिष्यति. न श्रूयते. You speaking? I cannot hear you. Okay. So, no. Na shruyate. Maybe there is some problem with your microphones. Because okay, does somebody else want to read? Okay. Who's hello, I think I can hear other noise from your end. Not yours. Are you speaking? Yogesh.
Yogesh. Hello, can you hear me?
Yeah. इदानीं श्रूयते.
ओके. कुतः प्रारम्भः?
माधवस्य मतेन.
इत्र एकं क्षणम्.
I'm trying to move it up this. Atra Madhavah.
Atra Madhavah. Mahabhavan Predidhat Ityatra Nade Prasangaha. Nyantasya Shabdantaratvat Edhati Grahanena Agrahanat. Ata Evahi Nabhabhu Puka Puk Nigami Ityatra Nyantanancha Bhadina Mukasankhyanam Ityuktam. तत्रैव शब्दान्तरत्वात् अप्राप्तम् उपसंख्यानमिति कैयटन्यासकार हरदत्तादिभिः सर्वैः एव उक्तम्. किञ्च न्यधिकस्यापि ग्रहणे उत्सर्गात् सुनोति इत्यत्र अभिशावयति इति उदाहृत्य ण्यन्तेन अभेहेयोगात् सुनोतिं प्रति अनुपसर्गत्वात् कथं षत्वम् इत्याशङ्क्य अभेः प्रकृत्यर्थविशेषकत्वेन समाधानं भाष्यकाराद्युक्तम् असङ्गतं स्यात्. न च हेरचङ्गीति लिङ्गात् प्रकृतिग्रहणेन न्यधिकस्यापि ग्रहणमिति भ्रमितव्यम्. ज्ञापकस्य कुत्वमात्रविषयकत्वात् तथा च वार्तिकं हेश्चङ्गीप्रतिषेध अनर्थक्यम् अङ्गान्यत्वात् ज्ञापकं तु चङ्गोऽन्यत्र ण्यन्तेऽपि कुत्वभावस्य इति. तस्मात् युक्तिविरोधात् भाष्यवार्तिकवृत्तिन्यासादिग्रन्थैः पूर्वापरस्वग्रन्थेन च उविरोधात् उपेक्ष्योऽयं कैयटः इति. अत्रेदं वक्तव्यम् अस्तु विशिष्टस्य शब्दान्तरत्वं तावतापि प्रकृतिभागस्य यद्रूपत्वं केन अपगतमिति अवधार्यताम्. न हि उपैधत इत्यादौ तिङन्तस्य यद्ध्रुपता नास्तीति प्रकृत्यंशेषा हीयते. तथा च उपसर्गात् सुनोतीति सूत्रे वार्तिकं सिद्धं तु अवयव अनन्यत्वात् इति. यत्तु अभिशावयति इत्यत्र भाष्यविरोधाद् भावनं तद्विपरीतम्. यतः प्रकृतेः सुनोतिरूप अनपायात् कैयटमते सिद्धा यथोक्तव्यवस्था. त्वन्मते तु रूपान्तरत्वेन ण्यधिकस्य अग्रहणात् असङ्गतैव प्रागुक्तव्यवस्था स्यात्. को हि एधयति असौ सावयत्योर्विशेषः. यद् एधतेर्ण्यधिकस्य अग्रहणं सुनोतिस्तु ग्रहणमिति. यदपि ण्यन्तभादीनाम् उपसङ्ख्यानम् उपन्यस्तं तदपि नास्माकं प्रतिकूलं. विशिष्टस्य शब्दान्तरत्वेन प्रकृत्यंशस्य अणिचा व्यवधानेन उपसङ्ख्यानस्य आवश्यकत्वात्. अत एव न तत्र तत्रत्यन्यासादिभिः स्वोक्त्या वा विरोधः. प्रत्युत तवैव विरोधः षाष्ठे भाष्यवार्तिकयोः एत्यधत्योः इति योगं विभज्य एचीति विशेषित्वात्. तस्मात् इह वृत्तिग्रन्थः माधवग्रन्थश्च असङ्गतः एव अभिप्रेत्य व्याचष्टे एजाद्योः इति. अक्षौहिणी
अलमलम्
उहो
अन्तिमः माधवस्य कः आक्षेपः? निजन्तस्य शब्दान्तरत्वम्. निजन्त विल् आल्वेस् बी ट्रीटेड् एस् अ डिफरेण्ट् शब्द देन् द ओरिजिनल् धातु. केवल धातुः भिन्नः निजन्त एव भिन्नः तथा सति अयम् एधधातुरेव न एधि इति निजन्तः भिन्नः एव धातुः तथा सति एधग्रहणेन निजन्तस्य एधतेः ग्रहणमेव न भवति वृद्धेः प्रसक्तिः नास्ति तन्निषेधार्थम् एचि इति न विशेष एचि इति एधतेः विशेषणमिति न वक्तव्यम् इति माधवः तत्र उच्यते यद्यपि निजन्तस्य शब्दान्तरत्वं तथापि प्रकृतिभागस्य एध्रूपता अस्त्येव though it is true that a nijanta is something else, the prakriti is still edha dhatu. Even where you say, even when you are doing say upa eti, and you say it is upa iti, ida vrithihi kriyate, tatrapi ayam indhatu na kila. Eti is not indhatu, it is the indhatu with the ting pratyaya, it is a tinganta. If you say when you add a pratyaya it becomes shabdantara, तत्रापि तिङन्तस्य शब्दान्तरत्वम् अस्त्येव यथा निजन्तः निजन्तस्य शब्दान्तरत्वं तथा तिङन्तस्यापि शब्दान्तरत्वम् अस्ति तथापि प्रकृतिभागः समानः तद्दृष्ट्वा एव कार्यं क्रियते एवमेव अत्रापि प्रकृतिभागे यदा कार्यं क्रियते तदा केवलधातोरपि भवति निजन्तस्यापि भवति तदेव अभिशावयति षत्वविषयेऽपि तत्र प्रकृतिभागः स एव सुधातुः अतः तत्र निजन्तस्यापि षत्वं भवति यत्र तु प्रत्ययात् परस्य कार्यं क्रियते वेन् यु आर् डूयिङ्ग् द सम् कार्य आन् द रैट् हेण्ड् सैड् तदा तु केवलधातोः परस्य कार्यं भवति चेत् निजन्तात् परस्य न भवति निचा व्यवधानात् इति यदा प्रत्ययभागे कार्यं क्रियते तदा निजन्तस्य शब्दान्तरत्वात् ण्यन्तभादीनाम् उपसङ्ख्यानम् इत्यादि उपसङ्ख्यानं कर्तव्यं भवति यदा तु प्रकृतिभागे कार्यं तत्र सिद्धं तु अवयव अनन्यत्वात् अवयवः नाम प्रकृतिः अनन्या इत्यतः तत्र कार्यं भवत्येव अतः एधधातो अयम् एधधातोः विहिता वृद्धिः निजन्तस्य इदिधत् इत्यस्य इत्यत्रापि प्रवर्तते तन्निवारणार्थम् एचि इति विशेषणीयम् भाष्ये अपि शास्त्रे भाष्यवातिकयोः एत्येधत्योः इति योगं विभज्य एषि एचि इति विशेषितत्वात् is made two different sutras etyadhatyoho and uti and echi will be taken as anuvritti for etyadhatyoho so which means that the bhashyakara accepts that echi is a visheshana for both eti and edhati okay so that is the argument in brief there are some internal ones which you can look up later any questions here meaning of hiyate hiyate is tyajyate to give up द प्रकृतिभावस्य एध्रूपता केन हीयत् सो इट् इस् नाट् लास्ट् इवन् दो द एण्टैर् थिङ्ग् इस् समथिङ्ग् एल्स् द प्रकृति इस् स्टिल् एध् ओहा त्यागे इति धातु हीयते एतत् ओके नेक्स्ट् Who will read the next part? From Akshauhini.
अक्षाणामोहिनी इति विग्रहः परिमाणविशेषविशिष्टा सेना अक्षौहिनी पूर्वपदात् संज्ञायामिति नत्वा यत्तु प्राचा विगृहीतम् अक्षाणामूहः समूहः सो अस्ति अस्याः इति तदपि ऊहिनीशब्देन षष्ठी तत्पुरुषः
इत्येवं
परतया एव कथञ्चित्
नेयम्
ऊहशब्देन समा
नेयम् कथञ्चित् नेयम्
नेयम् ऊहशब्देन समासे कथ इनौ तु
वृद्धिः न स्यात्
इदानीन्तनपुस्तकेषु तु भाष्यवार्तिकयोः ऊपशब्दो दृश्यत एव ज्ञानस्तकस्य इति उपस्थितस्यार्थस्य शब्दं प्रति विशेषणत्वसम्भवे त्याग उप त्याग अयोगात् इति भावः क्षीरदेवस्त्वाः
क्षीरदेवस्तु आह
क्षीरदेवस्तु आह रश्च इति सूत्रे रागेः पृथक् रागिग्रहणं इह ज्ञापकम् इति ननु एतत् अयुक्तम् अणादिना रागिना साहचर्यात् तथाभूतस्य एव सत्त्वार्थतया रागिग्रहणस्य उपक्षीणत्वात् इति चेत् विभ्रात् विभ्राक् इति रूपद्वयं हि काव्यम् तच्च वृश्चादिसूत्रे राजु इति पठित्वापि सुसाधम् एतस्य भ्राजतेः ऋकारस्य प्रागपि दातुं शक्यत्वात् ऋभ्राज इति भ्राजपास इति विकल्पस्य वाचनिकतया ऋकारस्य आत्मनेपदमात्रफलकतया पक्ष्यमानेनत्वेन तत्स्थाने अकारस्य सुपटत्वाच्च तस्मात् क्षीरदेवोक्तं ज्ञापकम् अपि सम्यक् एव
अक्षौहिणी इत्यत्र कथं विग्रहः तत्र समासः अस्ति तद्धितः अस्ति ऊहिणी इत्यत्र इनि प्रत्ययः तद्धितः अस्ति तथैव अक्षाणाम् ऊहः इति षष्ठी तत्पुरुषः अस्ति आदौ तद्धितः करणीयः वा आदौ समासो वा इति प्रश्नः सो दीक्षितानां मते आदौ इन् प्रत्ययः अर्थात् तद्धितः करणीयः ऊहः अस्य अस्ति इति ऊहिणी इति अनन्तरं समासः अक्षाणाम् ऊहिणी इति किमर्थम् अक्षात् ऊहिन्याम् उपसङ्ख्यानम् अक्षशब्दात् ऊहिनी शब्दे परे एव वृद्धिः विधीयते यदि आदौ अक्षाणाम् ऊहः इति क्रियते तदा अक्ष ऊह इति स्थिते गुणः एव भवति न तु वृद्धिः अक्षोः ततः तद्धिते कृते अक्षोहिणी इत्येव रूपं स्यात् न तु अक्षौहिणी इति अतः प्राचायद्विगृहीतम् अक्षाणाम् ऊहः इति तत् न समीचीनम् इति स्वादीरेणोः अत्र ईर ईरिन् इत्यस्ति ईरिन् इत्यस्य स्त्रीलिङ्गे ईरिणी इत्यत्रापि भवति यतोहि प्रकृतिः पुनः प्रकृतिः समाना इत्यतः स्वैरी स्वैरिणी इत्युभयत्रापि भवति इत्युक्तं प्रादुहोढोढ्येषु अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् इति अत्र परिभाषा ऊढ इत्यस्ति क्तप्रत्ययान्तः तस्य विहितः विहितं कार्यम् ऊढवान् इति क्तवत्वन्तस्य न भवति यतोहि ऊढ इत्यत्र ऊढ इति अर्थवत् किन्तु ऊढवान् इत्यत्र ऊढवान् इति समुदायस्यैव अर्थवत्त्वम् अस्ति, न तु ऊढ इति एकदेशस्य. अतः अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् इति परिभाषया ऊढवान् इत्यस्मिन् परे वृद्धिः न भवति. प्र ऊढवान् इत्यत्र किमर्थम्? उपस्थितस्य अर्थस्य शब्दं प्रति विशेषणत्वसम्भवे त्याग अयोगात्. यद्यपि व्याकरणे शब्दस्यैव प्राधान्यम् इति सत्यम्, तथापि अर्थसहितस्य शब्दस्यैव प्राधान्यम्. अर्थः तत्र प्रधानं न, किन्तु विशेषणम्. सो इवन् दो इट् इस् नाट् द प्रिन्सिपल् थिङ्ग्, इट् इस् स्टिल् देर् एस् अ विशेषण. देर् फोर् वि टेक् अर्थसहित शब्द एण्ड् नाट् जस्ट् शब्द. व्याकरण डस् नाट् डील् ओन्ली वित् सिलबल्स् रिप्ड् आफ् आफ् आल् मीनिङ्ग्स्. ओके, द मीनिङ्ग्स् आर् आल् देर् बट् दे आर् सेकेण्डरी टु द सिलबल्स् आर् द शब्द रूप. सो नौ हौ डु वि नो दिस् परिभाषा इत्यत्र सीलदेवः, हि इस् वन् आफ् द ओल्डर् ग्रामेरियन्स्, ऐ थिङ्क् हि इस् अ कमेण्टेटर् आफ् समथिङ्ग्, ऐ डोण्ट् नो वाट् सीलदेव रोट्. सो बट् हि सेस् वृष्टभज सृजमृज यज राज भ्राज छषां शः इति उच्यते. तत्र राज भ्राज इति धातुद्वयस्य ग्रहणमस्ति. भ्राज इत्यत्रापि राज इत्यस्ति, अतः राजग्रहणेनैव भ्राजधातोरपि षत्वं सम्भवति. पुनः पृथक् भ्राजिग्रहणेन ज्ञायते अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्. यतोहि भ्राज इत्यत्र राज इत्यस्य अर्थवत्वं नास्ति, अतः अर्थवतः राजेः ग्रहणे अनर्थवतः अनर्थकस्य भ्राजेः ग्रहणं न स्यात्. तदर्थं पृथक् भ्राजिग्रहणं पाणिनिना कृतम्. तेन इयं परिभाषा ज्ञाप्यते इति उच्यते. तदपि सम्यगेव. सो हि अक्सेप्ट् दट् ज्ञापक. सो देर् आर् सम् आक्षेपस् ओवर् दट् ज्ञापक विच् सेस् दट् द पर्पस् आफ् भ्राजिग्रहण देर् इस् नाट् टु इण्डिकेट् दिस् परिभाषा. द पर्पस् आफ् भ्राजि देर् इस् टु डिफरेन्शियेट् बिट्वीन् द टु भ्राज धातुस्. भ्राजृदीप्तौ इति एकः धातुः अस्ति, टुभ्राजृदीप्तौ इति अपरः अस्ति. तत्र राजिग्रहण राजेः साहसचर्यात्, सो बिकास् इट् इस् असोसियेटेड् वित् राज, द वन् विच् इमीडियट्लि फालोस् राज इन् द धातु पाठ इट् इस् इन् द फणादिगण. सो ओन्ली दट् शुड् बि कन्सिडर्ड्. द अदर् भ्राज विल् नाट् गेट् छत्व. सो दे से दट् द पर्पस् आफ् भ्राज हियर् ईस् टु डिफरेन्शियेट् बिट्वीन् द टु भ्राज धातु. So Dikshita's argument is, if that were Panini's purpose, he could have done it easily in the Dhatupatha itself. He did not need to do it in a sutra. Dhatupathe eva ekaha bhrajru iti bhavatu, anyaha dhatuhu rubhraja iti va kevalam bhraja iti va dhatum shakyate. So that will not affect anything else. So Panini did not do that, which means that the presence of Bhraji here is to indicate this paribhasha, is what he says. Okay. So, tasmat sila devoktam nyapakam api samyageva. So, what sila deva says is also right. Okay. So, next, anybody? So, I am going a bit quickly because, I mean, these are all very recent things which we studied. If you have any specific questions, please feel free to ask. Okay. So the smaller ones, I will not go into detail, the Praishyaha and all. Somebody read it up. If anybody has any questions in between, please ask. So anybody else wants to read? Those who have not read today? Paul, maybe you should.
Where do I start exactly? We were at
Praishyeti.
Pravatsa?
Praishyeti.
Okay. Praishyeti. Esha saha charyat.
Esha api.
Esha api. Anavyayam.
Anavyayam.
Anavyayam grihyate. Tena niyantadishe kto liyapi pararupam eva natu vriddhihi preshya gataha. Pravats
प्रवत्सचर कम्बल वसन दशार्णानाम रणे प्रवत्सचर इति अत्र कालप अनुसरिणः अरिसारिणः वत्सर शब्दम् अपि पठित्वा सत्सरे वत्सरे देयं ऋणं वत्सरार्णम् इति उदाहरन्ति अपरे तु वत्सशब्दम् अपि पठन्ति वत्सर्वं
तत्सर्वं
तत्सर्वम् I lost your screen.
Sorry. What happened? I don't know. I have no idea what happened. Sorry. I think I somehow changed the Zoom.
There we go.
Just a second. Yeah. Sorry, I missed. I pressed something by mistake.
Yeah. So, where was I now?
Tatsarvam.
Tatsarvam. Bhashyadit. Iva.
Bhashyadi viruddham.
Bhashyad viruddham.
Bhashyadi viruddham. Against Bhashya. Viruddham.
Viruddham.
Yeah. That is only the Vatsatara Shabda which is there. Neither Vatsa nor Vatsara. Okay, please continue.
Navisarga iti etat cha.
I'm sorry, this one, I mean.
Yeah.
The control is not very accurate, so I don't know how much to scroll. Yeah.
Okay. So, antad ivascha. Ihaikaha purva parayoho iti anuvartate tata asankhyam cha iti abhipretyah purvasya antavat iti stanivat sutre naiva sutrena eva gatartham idam sutram nacha al vidhi artham idam iti brahmitavyam asya api alvidhau anishtatvat anyatha ayaje indram iti atra sarvan savarna dirgha savarna dirgha patehe tatha cha vartikam na va asadru
atadrupya atidesha
drupya atidesha iti
अतः अत्र अन्तादिवच्च इति सूत्रम् नावश्यकम् इति दीक्षितानां सिद्धान्तः स्थानिवत् सूत्रेणैव गतार्थम् सेज् द इफेक्ट् आफ् वाट् एवर् अन्तादिवच्च अचीव्स् केन् बी हेड् थ्रू स्थानिवद्भाव अल्विध्यर्थमिदमिति न भ्रमितव्यम् बिकास् दिस् सूत्र आल्सो डस् नाट् आपरेट् इन् अल्विधि अस्यापि अल्विधौ अनिष्टत्वात् अन्तादिवच्च इत्येतदपि अल्विधौ न भवति अतः स्थानिवदादेशो अनल्विधौ इत्यनेनैव अन्तादिवद्भावः सिध्यति एकादेशः सिन्स् इट् इस् एन् आदेश फोर् बोथ् इट् विल् आक्ट् एस् बोथ् द स्थानीस् उभयोः स्थानिनोः धर्मः अत्र अतिदिश्यते तेनैव सिध्यति प्रयोजनम् अतः पृथक् सूत्रं न करणीयम् इति दीक्षितानां सिद्धान्तः पाल् प्लीस् कण्टिन्यू
न विसर्गेति You went too high.
Am I? Okay, at least.
Yeah, you scrolled too high. I can't see it.
Oh, yeah, you can see it. So, yeah.
Na visarga iti. Esat cha sukartha iti adau api tulyam. Atra cha कार्यकालपक्षे बहिरङ्गत्वात् असिद्धम् अपि बोध्यम् न च नाजानन्तार्थे
नाजानन्तर्ये
So what should it be?
Najanantarye.
Najanantarye iti nishedaha. Yatra anantarye antarange bahirange va acha ura
achoho anantaryam.
अनन्तर्यम् अचोः अनन्तर्यम् तत्र हरजत्तपक्षे तत् प्राप्ताव् अपि यत्र पश्चात् प्रवर्तमाने अजानान्तर्यम् इति कायतमते निषेधा अप्राप्तेः निषेधा अप्राप्तेः बह्वपेक्षत्वेन बहिरङ्गायां वृद्धौ अजानन्तर्य सत्त्वे अपि पक्षात् प्रवर्तमाने तदभावात्
अन्तवद्भावेन प्राप्तस्य रेफस्य न विसर्गः इति कौमुद्यम् सुखार्थः इत्यत्रापि पूर्वमपि किमर्थम् इति नियमः उच्यते कार्यकालपक्षे बहिरङ्गत्वात् असिद्धम् विसर्गविधायकं सूत्रं खरवसानयोर्विसर्जनीयः इति त्रिपाद्यामस्ति वृद्धिदायकं वा अन्यानि सूत्राणि वा सपादसप्ताध्याय्यां सन्ति. अतः रेफस्यैव असिद्धत्वात् आर् इति सुखार्थः इत्यत्र आर् इति वृद्धिः वृद्धिः उरण्परः इत्यनेन रपरत्वम्. अतः बहिरङ्गत्वात् असिद्धत्वम् अत्र नाजानन्तर्ये इति असिद्धपरिभाषायाः निषेधः. इट् इस् an exception to the asiddha paribhasha. Asiddham bahirangam antarange najanantarye bahishva plakuptihi iti paribhasha. Ajanantarye yatra achoho anantaryam, where akarya depends on two ach being next to each other. Anantarya is there is no antara, that is being immediately next to each other. So yatra ajanantaryam asti tatra bahiranga paribhasha na pravartate iti paribhasha. Now there is a difference in how that paribhasha should be interpreted. Haradatta says antarange bahirange va achoho anantaryam tatra bahirangatvam na. If either of the karyas, if either antaranga or bahiranga is ajanantarya, that is depends on ajanantarya, two ach, two vowels being next to each other, tatra bahirangatvam nasti iti haradattah. Tada tu atra bahirangatvam na sambhavati, because one of the karyas, that is vriddhi or other sandhis, are all ajanantarya. Kintu kayyata mate, according to kayyata, paschat pravartamane yatra ajanantaryam, when the latter karya is dependent on ajanantarya, tatraiva bahirangatva nishedha. Here vriddhi or the sandhi happens first and then you are doing visarga. Visarga is not ajanantarya. It does not depend on the presence of other vowels. Therefore, this is not an ajanantarya karya, and therefore the nishedha is not there. Bahirangatvad asiddhatve na atra visargah nivarayitum shakyah. Okay. Yes. Okay. Thank you, Paul. Somebody else wants to read? Okay. Yeah, I think that's it. Yeah. Somebody else wants to read from Upasargena. I think today Krishnan Mahodaya, I think you're not. Will you? Okay. Can you not see it? I mean, the screen is not visible, is it? Okay, so set up open. Hold on. You can read.
Yeah. Upasargena iti. Yate kriya yuktaha pradeha. Samprati eva gati upasarga sanyaha iti uktatva iti bhavaka. Rashabhiyati iti. Sarochi iti vidya nishedaha. Vejata iti yejir deeptam. कम्पनार्थस्तु परस्मैपदी येजते कम्पते इति तु प्राचां व्याख्यानं प्रामादिकमेव. येङ् येङि ఎంగి ఎంగి ఇత్యేవ సిద్ధేహే పరగ్రహణం ఉత్తరార్థం ఉత్తరార్థం రూపగ్రహణం తు చింత్య ప్రయోజనం ఏంగి పరహ ఇత్యేవ సిద్ధేహే యత అమి పూర్వః ఇతి నియోగః అవధారణం ఇతి యత్తు ఆహుః న అవక్లుప్తౌ యదా దృష్టః పరరూపస్య గోచరః విషయ వృద్ధేర్నియమె అయం యదా భవేత్ ఇతి ఏతేన నియోజనం నియోగ వ్యాపార ఇతి వ్యాఖ్యానం పరాస్తం యద్యేవ పూర్వం జ్వరణే శరీరే మమైవ జన్మాంతర పాతకానాం ఇత్యాది ప్రయోగ విరోధాత్ ఉదాహృత వృత్తిష్ట శ్లోక విరోధాత్ లంగః సాకడాయనస్య ఏవ తపః తపస్తపః కర్మకః కర్మకస్య ఏవ ఇత్యాది సత్ప్రయోగ విరోధాత్ చ యత్తు లోకవార్తికం ఇదం ఇత్యాహుః తత్ తత్ రభసాత్
నియోగః ఏవేచ అనియోగే ఇతి ఉచ్యతే తత్ర నియోగః నామ అవధారణం నియమః ఇత్యర్థః శ్లోకేన తద్ నావక్లుప్తౌ నామ అనవక్లుప్తౌ అనియమే యదా దృష్టః పరరూపస్య గోచరః తత్ర పరరూపం ఏవేచాని యోగే ఇత్యనేన పరరూపం భవతి నియమే అయం యదా యదా ఏవ శబ్దః నియమే నామ అవధారణే భవతి తదా విరుద్ధేః విషయః తత్ర వృద్ధిరేవ భవతి ఇతి అర్థః. అగ్రే పఠ్యతాం. దేర్ ఇస్ నాట్ మచ్ హియర్ సో ఐ యామ్ స్కిప్పింగ్ ఇట్. యాజ్ ఐ సెడ్ ఇఫ్ యు హావ్ ఎనీ క్వశ్చన్స్ ప్లీజ్ ఆస్క్. అగ్రే
సకంద్వాదిషు పరూపం వాచ్యం. సకంద్వాదిషు ఇది సకంద్వాది విషయే సిద్ధి అనుగుణం తత్ సిద్ధి అనుగుణం పరూపం వాచ్యం ఇత్యర్థః. అతఏవ ఆహ తత్ చ దేహే ఇతి యది తు ఆసితి అధికారాత్ అకారస్య ఏవ ఇష్యతే తర్హి మనీషా ఇతి న సిద్ధ్యేత్. కేచిత్తు మనః
పతత్ శబ్దయోః
మనః పతత్ శబ్దయోః వృషోదరాదిత్వాత్ అంత్యలోపే అకారస్య ఏవ పరరూపం ఆహుః.
తత్ర శకంధ్వాదిషు ఏకం క్షణం. శకంధ్వాదిషు పరరూపం వాచ్యం తచ్చ టేహే ఇత్యుచ్యతే. కిమర్థం టేహ పరరూపం? మనస్ ఈషా ఇత్యత్ర అస్ ఇత్యస్య పరరూపే మనీషా ఇతి. ఏవం పతత్ అంజలిహి ఇత్యత్ర అత్ ఇత్యస్య పరరూపే పతంజలిహి ఇతి రూపద్వయం సాధయితుం. కేచిత్తు అన్యేషాం మతే కృషోదరాదిత్వాద్ అంత్యలోపే ఆదౌ అంత్యవర్ణస్య లోపః క్రియతే. మనస్ ఇత్యత్ర సకారస్య ఏవం పతత్ ఇత్యత్ర తకారస్య తతః మన పత ఇత్యత్ర అకారాత్ అకారస్యైవ పరరూపం. తదా టేహే ఇతి న వక్తవ్యం. ఆత్ ఆద్గుణః ఇత్యతః ఆదితి అనువర్తతే. అకారస్య పరరూపం భవతి ఇతి వక్తుం శక్యతే ఇతి కేశాంచన మతం. అగ్రే పఠ్యతాం.
శకానాం దేశ విశేషాణాం అందుః కూపః శకందుః. తర్కాణాం రాజ్యం రాజ్యాం అందుః బదరీవాసీ తు కర్కందు శబ్దః దీర్ఘాంతర అందు దృణ్ము దృణ్భు ఇత్యాదినా ఉనాదిషు 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 వక్ష్యతే. అటతి ఇతి అట పచాత్ అచ్ kulasya ata kulata kulata isha uche isha gati adishu abhyam gurushya halaka iti avipretya
iti apratyaye
iti apratyaye isha manasa isha manisha iti apratyaye isha manasa isha manisha alasya isha halisha langala dandaha mudanyopadaha yahatu prabhu shankarayoho ishaha striyam langala dandake iti rabasa koshate talavyopada upadaha tasmin pare atmanaha itiyeva bhavati alesha patanjalihi yasmin
Patan
Anjalihi Yasmin Namaskaryatvat iti Patanjalihi. Patanjalihi Matanda iti Kechi Tatra Savarna Dirgamahu Para Matanda Mastam Punar Matandam
Martandam Abharat
Martandam Abharat Vishwa Martandaha Avrajat Ityadi Vaidika Prayogaha Desham Anukulaha.
Yeah. So Martanda Ityapi Prayogahasti, Martandaha Ityapi Asti, Martandaha Ityatra Pararupam, Martandaha Ityatra Savarana Dirgha. Alam, Anish, anybody else wants to continue? I think this is the last one. We'll finish it off today. There's not much after this. Muthu Lakshmi, will you? Sorry. Thank you.
Okay. Oth Ostayoho iti. Akarasya Oth Ostayoho cha ekatya samasi sthitau satya idam pravartate. Tena iha na vrishala sutau sutoshta vranaste iti.
Vrishala suta oshta vranaste. Astra bhinne samase.
Vrishala suta oshta vranaste iti. Avyakta shabdham yachaste vranehi iti. Anukaranasya iti. Parisputha akarat.
Akaradi. Akaradi varnasya.
Parisputakaradi varnasya iti bhavaha. Tachyacha anuvaranatvam kinjit samyena bhujyam. Yattu prachoktam. Atahakim dakarante mabhut iti. Echa vyakhyatam dakarante iti. Rupantaro upalakshanam vatak marut ichyadehe api iti. Tannisaram. Prashnasya dhanta ityuttarasya cha niralambhanatvat yattu vyachakyuh ato gune ityato ata ityanuvartya sabdhadikharas asrenat siddhamiti prashnah jastva vapashat dandatvam tadabhi syat punara
punaha
agrahane tu shautadandatvasya vivakshanat na iti uttaramiti sat chintyam jastva shastra shastraya siddhatvena pararupasya eva pravattehe namreditasya iti nishode phatak padabuti udaharanasya asambandhatvat avattehe cha tatrahi bhavat uktavitya praptireva nasti dandatvat yetena anukarya anukaranayoho veda vivakshaya yetena anukarya anukaranayoho abheda vivakshaya vivakshya abhavena Ravi itya aham, Ravi itya ayam ahe,
आह इति वत्
अयम् आह इति वत् अपदत्वा सतत् इति इत्यत्र तत्त्वं न इति ग्रन्थोः प्रयुक्तः उत्तरग्रहण उत्तरग्रन्थ ग्रन्थविरोधात् जस्वस्य असिद्धतया परिरूपेणैव बाधाश्च ननु तदपि नित्यं तथा च कथं परिरूपविरहेण प्रयोगः इति चेत् न अलौकिकं प्रक्रियावाक्यम् इदमिति स्वयमेव व्याख्यातत्वात् संहितायाः अविवक्षायां तत् सम्भवात् च इति दिक्
अत्र अतो अव्यक्तानुकरणस्य अत इतौ इति सूत्रम् अतः अत् इत्यस्य इति शब्दे परे पररूपं भवति अर्थः तत्र प्राचां ग्रन्थे अतः किं दकारान्ते मा भूत् इति उक्तम् अत् इति उक्तत्वात् यत्र दकारान्तत्वं तत्र मा भूत् इति तस्याः पङ्क्तेः द्वेधा व्याख्यानं दृश्यते एकं तु वटक् मरुत् इत्यादिषु न भवेत् इत्येतदर्थम् इति एकं व्याख्यानम् सो वन् आफ् द कमेण्टेटर्स् सेज् सो वेन् हि सेज् अत् इट् मीन्स् वेर् एवर् इट् इस् दकारान्त आर् एण्डिङ्ग् इन् एनी अदर् लेटर् देर् इस् नो पररूप एण्ड् हि गिव्स् एक्साम्पल्स् आफ् वटक् मरुत् दट् इस् टोटली राङ्ग् वै इट् इस् आब्वियस् अतः भवति इत्युक्ते अन्यस्य न भवति इति ज्ञायत एव तत् न वक्तव्यं विच् मीन्स् द होल् पङ्क्ति द दलकृत्य इट् सेल्फ़् इस् यूस्लेस् से दलकृत्य हेस् टु सर्व् ए पर्टिक्युलर् पर्पस् एण्ड् हि इस् पर्टिक्युलर्लि सेङ्ग् अतः इट् इस् आब्वियस् अन्येषां न भवति इति तर्हि किमर्थम् अतः इति वक्तव्यम् इति प्रश्नः एव निस्सारः सो दट् कमेण्टरि इस् नाट् रैट् अनदर् कमेण्टरि इण्टर्प्रिट्स् इट् एस् यत्र जष्ट्वं भवति तत्र पररूपं न भवति यत्र पठत् पठद् इति यत्र जष्ट्वं भवति तत्र पररूपं न भवति इति तस्याः पङ्क्तेः आशयः अतः इति किं दकारान्ते मा भूत् इति पङ्क्तेः सः आशयः इति एकः व्याख्याकारः वदति तदपि चिन्त्यं किमर्थं जष्ट्वशास्त्रस्य असिद्धत्वेन पररूपस्यैव प्रवृत्तेः एनिमे जष्ट्व इस् असिद्ध त्रिपाद्यामस्ति इत्यतः जष्ट्वम् असिद्धम् अतः आदौ पररूपमेव प्रवर्तते जष्ट्वे कृते पररूपं न भवति इति वक्तुमेव न शक्यते यतः जष्ट्वं पररूपस्य असिद्धम् दट् इस् द फस्ट् पायिण्ट् एण्ड् सेकेण्ड् नाम्रेडितस्य इति निषेधसूत्रे वेर् इफ् इट् इस् अन् आम्रेडित पठत् पठत् यत्र द्वित्वं भवति तत्र पररूपं नास्ति इति निषिध्यते तत्र उदाहरणत्वेन किं दीयते पठत् पठदिति इति उदाहरणं जष्ट्वं कृत्वा उदाहरणं दीयते so if when there is jashtva there is no pararupa then this counter example is not correct nishedhasya udaharanatvena diyate yadi jashtve krute pararupam eva na bhavati tarhi nishedha sutram vinapi tatra pararupasya praptihi nasti tarhi tasya nishedha sutrasya udaharane udaharanatvena patat pataditi iti यद् दत्तं तत् असम्बद्धं स्यात् स्वयं प्रक्रियाकौमुदीकारेणापि तदेव दीयते तच्च असम्बद्धं स्यात् अतः सा पङ्क्तिः न युक्ता इति निषिध्यते ओके सो यस् प्लीस् नेक्स्ट् अग्रे पठ्यताम् अकस्वर्णे लीला
अकसवर्णी अकसवर्णी दीर्घः अकसवर्णी अचिपर इति यदा ऊष्मणा यदा तु ऊष्मणाम् ईषत् विवृतत्वम् आश्रित्य नाचलौ इति सूत्रम् सत्याख्यायते तदा इह अचि इति न अनुवर्तनीयम् अको अचि दीर्घ इति सुवचम् वर्णद्वयम् द्विमात्रमिति यत्तु प्राचा व्याख्यातम् दीर्घे प्राप्ते ह्रस्वऋकारः ऋकारश्च विधीयत इति तद्भाष्यकयथादि विरोधात् उपेक्ष्यम् लिङ्गपदान्तात् लिङ्गपदान्तात् इत्यस्य आरम्भादस्य पदान्तविषयत्वे लब्धे उत्तरार्थं पदान्तात् इति स्पष्टार्थम् इहैव कृतम् सर्वत्र विभाषागोः यद्यपि छन्दसि इति न प्रकृतम् तथापि यजिष्ठिरः इत्यादि
प्रक्रमात्
इदमिति सम्भाव्येत अथ सर्वत्रे इति उक्तम्
सर्वत्र इत्युक्तम् सर्वत्र इत्युक्ते लोके वेदे च
सर्वत्र अतः सर्वत्र इत्युक्तम्
तद्व्याचष्टे
तद्व्याचष्टे लोके वेदे च इति इह एङ्गः इत्यनुवर्त्य एङ्गन्तस्य गो इति व्याख्येयम् तेन इह चित्रगो अग्रम् इति प्रतिपदोक्तस्य एङ्गो ग्रहणात् न इह हे चित्रगोग्रम् प्रकृतिभाव इति प्रकृत्यान्तः पादम् इति सूत्रात् प्रकृत्येत्य अनुवृत्तेः यद्यपि भाष्ये ईको गुणवृद्धिः इति सूत्रे नान्तपादम् इति पाठः स्थितः साक्ष्य भाष्ये अपि एवम् तथापि चाकरसूत्र ह्रस्वश्च इति चकारेण प्रकृत्या इत्यनुकृष्यते इति भाष्यदर्शनात् प्रकृत्यान्तपादम् इति पाठोऽपि साधुरेव न इति पाठे तु सर्वत्र इति सूत्रेण पूर्वरूपमेव विकल्प्येत इत्यवबोध्यम्
अवधेयम्
अवं स्फोटायनस्य अत्रापि एङ्गन्धस्य गो इति गोः इति व्याख्येयम् अपि सूत्रयितुम् उचितम् विभाषानुवृत्तेः स्फोटायनग्रहणम् पूजार्थम् गवीति यत्तु प्राचा गवे इति प्रत्युदाहृतम् तत् न सत्यपि अवङ्गी अतोगुणे इति पररूपेण रूपसिद्धेः न च सति अवङ्गी नेर्यः आदेशः
स्नेः यादेशः स्यात्
सोरि नेः यादेशः स्यात् क्रियां तु ताप् स्यात् इति वाच्यम् सन्निपातपरिभाषया यादेशतापोः सुसमाधानत्वात् न च सा अनित्येति वाच्यम् तावतापि औत्सर्गिकप्रवृत्त्या इष्टसिद्धेः
अवङ्स्फोटायनस्य इति तु पदान्ते एव भवति न तु पदस्य मध्ये इत्यस्य उदाहरणं गवि इति दीयते दीक्षितैः गवे इति दातव्यम् इति प्राचा दत्तम् तत् न युक्तम् किमर्थम् गो ए इति स्थिते यद्यपि अवङादेशः भवति तथापि अतोगुणे इति पररूपेण पुनः गवे इति रूपमेव सिद्ध्यति रूपम् न भिद्यते इत्यतः प्रत्युदाहरणत्वेन गवे इति न दातव्यम् इति दीक्षिताः वदन्ति अग्रे
गवाक्ष इति गवाम् अक्षि इव इति विग्रहः अक्षणो दर्शनात् अदर्शनात्
इति अच् समासान्तः
वातायने रूढो अयम् पुंस्त्वम् लोकात् इन्द्रे च आरम्भसामर्थ्यात् नित्यम् इदम् इन्द्रे च नित्यम् इति पाठस्तु भाष्या असम्मतत्वात् उपेक्षितः येहि कृष्ण इति दूराद्भूते च इति उक्तः यत्तु
कृष्ण उत्तमम् सो वी हैव फिनिश्ड द अत्संधि प्रकरण क्विक रिविजन पॉल व्हाट हैपेंड टू द लास्ट टू पंक्तिस इज इट मिसिंग इन द फाइल व्हिच आई
डोंट नो yeah I don't know I don't they didn't come I guess
okay
I can show them if you want
no it's okay not needed but I was just wondering
can you see that but you can see that right
yeah now I can see that yeah So, yeah, one more announcement. There is, we finished that Sunday. We have to start with Prakriti Bhava. So, we will do that. I mean, there is no class next week. I'm sorry, but I'm traveling next week. So, no class next week. After that, we will start with Prakriti Bhava. Okay. So, next week, I think, is 21. So, no class on that. So, 28, we will have the next class. ध्यायन् ध्यायम् परम् ब्रह्मस्मारम् स्मारङ्गुरोर्गिरः सिद्धान्तकौमुदी व्याख्याम् कुर्मः प्रौढमनोरमाम्